इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचकः पुनीत त्रिपाठी। आदौ मुख्य वार्ताः। कोलकातायाः सियालदाह नगरस्य सत्र न्यायालयेन आर्जीकर दुष्कर्म हत्या प्रकरणयोः प्रमुखाभियुक्ताय संजय राय इत्यस्मै आजीवन कारावासस्य दण्ड प्रदत्तः। अद्य डोनाल्ड ट्रम्प इत्येषः अमेरिका देशस्य 47वें राष्ट्रपतित्वेन शपथ ग्रहणं करिष्यति। केन्द्रीय मन्त्री डॉक्टर मनसुख मांडवियाः अवदत् यत् श्रम मण्डलः शीघ्रमेव स्वतन्त्र कर्मचारिणः सामाजिक सुरक्षायाः अन्तर्गतम् आनयति। उत्तराखण्ड राज्ये राज्यमन्त्रिमण्डलेन समान नागरिक संहिता स्वीकृता, यया राज्ये तस्याः कार्यान्वयनस्य मार्गः प्रशस्तः अभवत्। अपि च हॉकी इण्डिया लीग पुरुष स्पर्धायां राउरकेलायां स्राची राठ बंगाल टाइगर्स इत्येतत् दलं JSW सूरमा हॉकी क्लब इत्येतत् दलं अद्य सायं सम्मुखीकरिष्यति। अथ वार्ताः विस्तरेण। कोलकातायाः सियालदाह नगरस्य सत्र न्यायालयेन आर्जीकर दुष्कर्म हत्या प्रकरणयोः प्रमुखाभियुक्ताय संजय राय इत्यस्मै आजीवन कारावासस्य दण्डः प्रदत्तः। सत्र न्यायाधीशः अनिर्वन दासः इत्यपि अभिनिर्दिष्टवान् यत् राज्य प्रशासनेन पीडितायाः परिवाराय 17,00,000 रूप्यकाणि क्षतिपूर्तिरूपेण दातव्यं भविष्यति। न्यायालयेन शनिवासरे संजयः अस्मिन् प्रकरणे दोषी उद्घोषितः। स्नातकोत्तर प्रशिक्षु चिकित्सायाः मृतशरीरं गतवर्षस्य अगस्तमासस्य 9 दिनांके आर्जीकर चिकित्सा महाविद्यालयस्य सम्मेलनकक्षे प्राप्तमासीत्। अगस्तमासस्य 10 दिनांके कोलकाता नगरस्य आरक्षकैः संजयः गृहीतः। तदनन्तरम् एतत् प्रकरणं केन्द्रीयान्वेषण विभागाय समर्पितम्। अद्य रात्रौ डोनाल्ड ट्रम्प इत्येषः अमेरिकादेशस्य 47वें राष्ट्रपतित्वेन शपथ ग्रहणं करिष्यति। राष्ट्रपतिपदाय शपथ ग्रहणं मुख्य न्यायाधीशः जॉन रॉबर्ट्स इत्येषः वाशिंगटन डीसी नगरस्य कैपिटल रुटुंडा स्थले कारयिष्यति। समारोहात् पूर्वम् 78वर्षीयः ट्रम्प इत्येषौ गतरात्रौ वाशिंगटन नगरे विजयसभां सम्बोधितवान्। सभायां प्रवदन् असौ अमेरिकादेशस्य प्रत्येकं संकटं दूरीकर्तुम् ऐतिहासिक वेगेन कार्यं करिष्यति इति प्रतिज्ञां कृतवान्।
We will make America safe again. And we will make America great again. Thank you very much.
स्वयोजनानां विषये प्रवदन् असौ पुष्टिं कृतवान् यत् संक्रमणकाले मध्यपूर्वे यत्किमपि कार्यं जो बाइडन प्रशासनेन प्रबन्धितं तस्मात् अधिकं तस्य प्रशासनेन सम्पादितम्। सः समर्थकान् आश्वासितवान् यत् तस्य शपथग्रहणदिवसस्य समाप्तिं यावत् अमेरिकादेशस्य सीमायाम् आक्रमणं स्थगितं भविष्यति इति। वाशिंगटननगरे तीव्रशीतकालस्य पूर्वानुमानस्य कारणेन शपथग्रहणसमारोहः गृहादेव भविष्यति। जेडी वेन्स उपराष्ट्रपतित्वेन शपथं गृह्णीयात्। अस्मिन् कार्यक्रमे विदेशमन्त्री डॉ एस जयशंकरः भारतस्य प्रतिनिधित्वं करिष्यति। अस्मिन् समारोहे अर्जेंटीना देशस्य राष्ट्रपतिः जेवियर मिलेई, इटली देशस्य प्रधानमन्त्री जियोर्जिया मिलोनी चेत्यादयः नैके नेतारः भागं भजिष्यन्ति। केन्द्रीयमन्त्री डॉ मनसुख मांडवियाः अवदत् यत् श्रममण्डलः शीघ्रमेव स्वतन्त्र कर्मचारिणः सामाजिक सुरक्षायाः अन्तर्गतम् आनयति। असौ अवदत् यत् प्रायः 60 कोटिजनाः प्रशासनस्य स्वास्थ्य सुरक्षा योजनाभिः लाभान्विताः सन्ति, 5,00,000 रूप्यकाणां निःशुल्क चिकित्सां च प्रापयन्ति इति। संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव कार्यक्रमोऽयम् आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। सम्प्रति महाकुम्भ सम्बद्धाः वार्ताः श्रूयन्ताम् ऋचा झा इत्यनया सह।
भारतीय खाद्य सुरक्षा मानक प्राधिकरणेन उत्तर प्रदेश प्रशासनस्य सहयोगेन महाकुम्भ क्षेत्रस्य विभिन्नेषु प्रभागेषु आवश्यकतां पूरयितुं खाद्य विश्लेषकैः सह 10 चर खाद्य परीक्षण प्रयोगशालाः नियोजिताः। येन हि चर खाद्य परीक्षण प्रयोगशालासु खाद्य पदार्थेषु अपमिश्रणम् अपव्ययस्य च परीक्षणं क्रियते। मेलकं पञ्च क्षेत्रेषु 25 भागेषु च विभक्तमस्ति, यत्र प्रत्येकस्मिन् क्षेत्रे स्वच्छतायाः सुरक्षायाः च मानदण्डानां नियमितरूपेण निरीक्षणार्थं खाद्य सुरक्षाधिकारिणः नियोजिताः सन्ति। निरीक्षणं सुदृढं कर्तुं सम्पूर्णे क्षेत्रे आहत्य 650 खाद्य सुरक्षाधिकारिणः नियुक्ताः सन्ति। भारतीय खाद्य सुरक्षा मानक प्राधिकरणस्य नेतृत्वे एताः सर्वसमावेशाः व्यवस्थाः सार्वजनिक स्वास्थ्यस्य खाद्य सुरक्षायाः च विषये प्रशासनस्य अटल प्रतिबद्धतां प्रतिबिम्बयन्ति। त्रिवेणी संगमतटे प्रचल्यमाने महाकुम्भे उत्तर प्रदेशस्य राज्यपालः श्रीमती आनन्दीबेन पटेलः विविध कार्यक्रमेषु भागं गृहीतवती। तत्रैव केन्द्रीय मन्त्री मनोहर लाल खट्टर वर्यः प्रयागराजं सम्प्राप्य महाकुम्भ क्षेत्रे कृतानां सज्जतानां स्वच्छतायाः व्यवस्थानां च निरीक्षणं कृतवान्। एकदिवसीय प्रवासावधौ अद्य प्रातः असौ त्रिवेणी संगमे पवित्रं स्नानम् अकरोत्। अस्मिन् समये केन्द्रीय मन्त्री स्वच्छता कर्मचारिभिः सह मेलनं कृतवान्। असौ वार्ताहरान् संसूचयन् कथितवान् यत् वयं स्वच्छता कर्मचारिणः अभिनन्दयामः, ये मेलकस्य स्वच्छतां कृतवन्तः। महाकुम्भ मेलकस्य अनन्तरं एतादृशानां स्वच्छता कर्मचारिणां कृते सम्मान समारोहः भविष्यति। संस्कृत वार्ता कक्षतः ऋचा झा।
उत्तराखण्ड राज्ये राज्य मन्त्रिमण्डलेन समान नागरिक संहिता स्वीकृता, यया राज्ये तस्याः कार्यान्वयनस्य मार्गः प्रशस्तः अभवत्। अयं निर्णयः देशस्य अन्येषु राज्येषु प्राधान्यं स्थापयिष्यति इति अपेक्षते, येन निर्णयेन शासनस्य सामाजिक परिवर्तनस्य च विषये राज्यस्य सक्रियः दृष्टिः प्रतिबिम्ब्यते। वार्ताहरान् संसूचयन् मुख्यमन्त्री पुष्कर सिंह धामी समान नागरिक संहितायाः प्रभावस्य विषये आशां प्रकटितवान्। सः अवदत् यत् उत्तराखण्डस्य समान नागरिक संहितायाः स्वीकरणं शेष भारतस्य कृते प्रेरणारूपेण कार्यं करिष्यति।
और आज माननीय मंत्रिमंडल में इस बात पर हमने चर्चा करी कि जल्दी से जल्दी हम स्टेटों का, चूंकि सारी तैयारी होने के बाद, चूंकि भारतवर्ष में सबसे पहले यूसीसी लागू करने वाला राज्य देवभूमि उत्तराखंड बनने जा रहा है, तो सभी चीजों की समीक्षा करने के बाद हम जल्दी ही डेटों का ऐलान करेंगे।
समान नागरिक संहिता सुनिश्चेतुं प्रयतते यत् सर्वे नागरिकाः निज सम्बन्धानां विषयेषु समानतयाः न्यायस्य च प्रोत्साहने सामान्य नियमैः शासिताः भवेयुः इति। उपराष्ट्रपतिना जगदीप धनखड़ेन देशे समृद्ध रिक्थं शास्त्रीय भाषाभिः सह पुनः संयोजनं कृत्वा देशे सांस्कृतिक पुनर्जागरणस्य आवश्यकतायै बलं प्रदत्तम्। अद्य नवदिल्ल्याः इण्डोलॉजी इत्यस्य भवन नन्दलाल नुवल केन्द्रस्य शिलान्यास समारोहे प्रवदन् श्रीधनखड़ः भारतीय ज्ञानस्य परस्पर सम्बन्धतां तस्य वैश्विक दृष्टिं च प्रकाशितवान्। सः इत्यपि अवदत् यत् भारतं सर्वदा शान्ति सौहार्दाय प्रयतते। उपराष्ट्रपतिना दुःखं प्रकटितं यत् औपनिवेशिक शक्तयः भारतस्य इतिहासस्य दुर्निरूपणं कुर्वन्ति, ये प्रायः राष्ट्रस्य परम्पराम् अवैज्ञानिकाः च निराकृतवन्तः। इण्डिया हॉकी लीग पुरुष स्पर्धायां राउरकेलायां स्राची राठ बंगाल टाइगर्स इत्येतत् दलं जेएसडब्ल्यू सूरमा हॉकी क्लब इत्येतत् दलं अद्य सायं 17:00 वादने सम्मुखीकरिष्यति इति वार्ताः।